एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अद्य भगवतः शंकरस्य पूजाराधनपूर्वकम् महाशिवरात्रि पर्व समायोज्यमानम् वर्तते। दिवसेऽस्मिन् प्रातःकालादेव काष्ठमण्डपस्य देवपत्तनस्थे श्री पशुपतिनाथ मन्दिरे भगवतो देवादिदेवस्य श्री पशुपतिनाथस्य दर्शन पूजन स्तवनार्थं देशाद् विदेशाच्च पारिलक्ष्यशः श्रद्धालवो भक्तजनाः उपस्थिताः सन्ति। पशुपतिर्हि नेपालस्य एव न अपितु अशेष विश्ववर्तिनाम् हिन्दू धर्मावलम्बिनाम् आराध्य देवोऽस्ति। भागवत्यास्तटे अवस्थितम् श्री पशुपतिनाथस्य मन्दिरम् सुप्रसिद्धेषु ज्योतिर्लिङ्गेषु अन्यतमम् मन्यते। भगवतः शिवस्य ज्योतिर्लिङ्गस्य दर्शनेन यः समृद्धि परत्र मुक्तिश्च लभ्यते इति स्कन्दपुराणस्य हिमवत् खण्डो निर्दिशति। अद्य राष्ट्रस्य सर्वेषु शिवमन्दिरेषु गुप्तगह्वरवर्ति शिवालयेषु च भगवतः शिवस्य दर्शन पूजन स्तवन दुग्धार्पणादि कार्याणि सम्पादयितुं जनाः बाहुल्येन समायान्ति। अस्मिन् क्रमे खोटाङ मण्डलस्य हलेसी शिवालये, अछाम मण्डलस्य वैद्यनाथ मन्दिरे, अन्येषु शिवालयेषु च महत मेलकम् आयोज्यते, यत्र दर्शनार्थिनो महान् समवायो दृश्यते। एवंविधस्य महामहिमशालिनो भगवतः ओंकार स्वरूपस्य अवतरण दिवसत्वेन शिवरात्रि पर्व दिवसः समाद्रियते। अयम् दिवसः अशेष दिवसेषु पर्वसु च सर्वातिशायी महत्वम् विवर्ति। एतदवसरे दर्शनार्थिनाम् भक्तजनानाम् सौविध्याय पाशुपत क्षेत्रे बहुनाम् संघ संस्थानाम् पक्षतः अन्नपान वास चिकित्सा प्रवृत्ति सेवा कार्याणि सञ्चाल्यमानानि सन्ति। अद्य श्री पशुपतिनाथस्य दर्शनाय प्रातः त्रिवादनादेव मन्दिरस्य चत्वारि एव द्वाराणि उद्घाटितानि सन्तीति पशुपति क्षेत्र विकास कोषो ज्ञापयति। पशुपति क्षेत्रस्य दर्शनाय समागतानां भक्तजनानां सौविध्याय अस्मिन् वर्षे विशेष प्रबन्धनम् विहितम् अस्ति। महाशिवरात्रि पर्वणः अवसरे अद्यैव नेपाली सेनाया नैकविधान सैन्य कौशलान् प्रदर्श्य सेना दिवस समायोज्यमानो वर्तते। अवसरेऽस्मिन् सर्वकारेण अद्य आराष्ट्रम् सार्वजनिकावकाशः प्रदत्तोऽस्ति। एतदवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन पवित्रस्य पाशुपत क्षेत्रस्य नेपाले विद्यमानता न केवलम् अस्माकम् एव कृते अपितु समग्र हिन्दू धर्मावलम्बिनां कृते गौरवस्य विषयोऽस्तीति उक्तं वर्तते। एतद् विक्रमवर्षीयस्य महाशिवरात्रेः पर्वणः अवसरे सम्पूर्ण नेपाली जनतायाः सुख शान्ति समृद्धिनां कामनां विदधानः शुभकामना सन्देशं प्रकाशयन् राष्ट्रपति पौडेलः अस्माकं राष्ट्रे बहुनां धार्मिक सम्प्रदायानाम् अभ्यन्तर विद्यमान सनातन संस्कृतौ शिवसम्बद्धास्थायाः विश्वासस्य च नैरन्तर्येण प्रतिबिम्बनम् जायमानमस्ति इति भासमाण आविश्वम् श्रद्धालूनाम् कृते नेपालः सदैव आध्यात्मिक चिन्तनस्य केन्द्रम् अस्ति इति प्रतिपादितवान् वर्तते। महाशिवरात्रि पर्वणः अवसरे शुभकामना सन्देशं प्रकाशयन् उपराष्ट्रपति रामसाहेब प्रसाद यादव अवसरेऽस्मिन् योगध्यानोपवासादिभिः शरीरक स्वास्थ्य मानस स्वास्थ्य च सुधारम् आनेतुं सहयोगः प्राप्नोति इति विश्वासं व्यनक्ति। महाशिवरात्रि पर्वणः अवसरे सभामुखेन देवराज घिमिरे विदेन नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन च शुभकामना सन्देशः प्रदत्तोऽस्ति। प्रधानमन्त्रिणा केपी शर्मा ओलिना ह्य सायंसे महाशिवरात्रि पर्वण पूर्व सन्ध्यायां पशुपतिनाथ मन्दिरस्य दर्शनम् अवलोकनम् च विहितमस्ति। तदवसरे प्रधानमन्त्री ओली मन्दिरे पूजार्चनयोः विधाय पूजार्चने विधाय महाशिवरात्रि पर्वण पूर्व कार्याणाम् व्यवस्थापनस्य च विषये पशुपति क्षेत्र विकास कोषस्य पदाधिकारीभ्यः अजानात। तस्मिन् क्रमे प्रधानमन्त्री ओली पर्वेदम् सुरक्षितम् अनुशासितम् मर्यादितम् व्यवस्थितम् च विधाय सहजरूपेण दर्शनस्य व्यवस्थाम् विधातुम् सम्बद्ध निकायान् निरदिशत। नेपाल प्रहरीणा महाशिवरात्रि पर्वण अवसरे पशुपतिनाथस्य पूजार्चनायै आगमन समय आभूषणानाम् धारणेन विनैव मन्दिरम् प्राप्तुम् अनुरुद्धमस्ति। सर्वकारेण प्रदेयस्य धनराशेः अवशिष्टायाः आयोजनायाः कार्यक्रमस्य च दायित्वं व्यवस्थापयितुम् अर्थमन्त्रालयाय स्वीकृतिं प्रदातुं निर्णीतमस्ति। मन्त्री परिषद गत सोमवासरस्य उपवेशेन वर्तमान आर्थिक वर्षे स्वीकृतेषु कार्यक्रमेषु आयव्यय के च समाविष्टाभ्य अस्यैव आर्थिक वर्षे सम्पन्नाभ्य आयोजनाभ्य वित्त प्रदानस्य व्यवस्थायै अर्थ मन्त्रालयाय स्वीकृतिं प्रदातुं निर्णीतमस्ति। मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ सम्पन्नाभ्य आयोजनाभ्य प्रदेय वित्तीय अवशिष्टे सति निर्माण सम्बद्ध व्ययस्य न्यूनताया स्थिते दर्शनात् वित्त प्रदानस्य व्यवस्थायै अर्थ मन्त्रालयाय स्वीकृतिं प्रदातुं निर्णीतमस्ति इति अज्ञापयत्। उपवेशेन अशीत्युत्तर द्विसहस्रतम विक्रम वर्षस्य वैशाख मासस्य प्रथम दिवसानन्तरं प्राकृतिक विपत्सु निपत्य विलुप्तानां परिवाराणां कृते सम्बद्ध जनपद विपद व्यवस्थापन कोषस्य माध्यमेन मृतकानां परिवाराणां कृते सहयोगं प्रदातुं निर्णीतमस्ति। उपवेशेन अस्यैव फाल्गुन मासस्य अष्टादश दिवसात् द्वाविंशं दिवसं यावत् भारते आयोक्ष्यमाणे पेयजल स्वच्छतायाः विकासस्य च संविधापत्रे हस्ताक्षरण कार्यक्रमे सहभागितायै पेयजल मन्त्रिणे स्वीकृतिं प्रदातुं च निर्णीतमस्ति इति असूचयत्। प्रतिनिधि सभाया ह्यस्तनोपवेशेन संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन प्रस्तुतम् एतद् विक्रम वर्ष्यम् संचार परिषद विधेयकमाश्रित्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। उपवेशे उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री गुरूङ संचार माध्यमान् समय सापेक्षान् स्वच्छान् स्वतन्त्रान् मर्यादितान् च विधाय पत्रकारितायाः विकासं स्वनियमनं च प्रवर्धयितुं विधेयकमानीतमस्ति इति स्पष्टीकृतवान्। एवमेव उपवेशे एतद् विक्रम वर्षीयं नेपाल वायु सेवा विधेयकम् एतद् विक्रम वर्षीयं नेपाल नागरिकोड्डयन प्राधिकरण विधेयकम् च संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे प्रास्तोत। तत्पूर्व सांसदा ह्यस्तनोपवेशे मार्गे दुर्घटितासु घटनासु आहतानां जनानां निःशुल्कम् उपचारस्य व्यवस्थायै सर्वकारं याचितवन्तः। प्रतिनिधि सभायाः अपरोपवेश अस्यैव फाल्गुन मासस्य एकविंशे दिवसे दिवा एकवादने वस्ता। राष्ट्रपतिना रामचन्द्र पौडेलेन सह तत्ख्रीष्टवर्षे युवादान प्रदान कार्यक्रमे सहभागितायै नेपालं प्राप्तै भारत भूटान मालदिव्स देशानां एनसीसी समूहस्य युवभिः शिष्टाचार मेलवार्ता भीतास्ति। राष्ट्रपतिना सह शिवरात्रेः पर्वणः नेपाली सेनाया स्थापनायाः द्वाषष्टोत्तर द्विशततमस्य वार्षिकोत्सवस्य च अवसरे काष्ठमण्डपे आयोक्ष्यमाणे युवानुभवादान प्रदान कार्यक्रमे सहभागितायै आगतेन समूहेन राष्ट्रपति भवनं प्राप्य मेलवार्ता विहितास्ति। सर्वकारेण निर्धारितस्य मापदण्डस्य अनुसारेण समस्वीकृतिं गृहीत्वैव वैदेशिक वृत्त्युपार्जनाय गन्तुं बैंकक वर्तिना नेपाली दूतावासेन अनुरूद्धमस्ति। कम्बोडिया लाओस म्यानमार थाइल्याण्ड प्रभृतिषु देशेषु नेपाली श्रमिका संकटे वर्तन्ते तेषाम् उद्धाराय समस्या सम्भूतास्तीति च भाषमाणेन दूतावासेन प्रक्रियां पूरयित्वैव वैदेशिक वृत्त्युपार्जनाय गन्तुम् अनुरूद्धमस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड आगामिनि निर्वाचने केनापि दलेन सह घटबन्धनेन विनैव एकाकिना प्रतिस्पर्धायां गम्यते इति उद्घोषयति। जनतया सह माओवादी केन्द्रमिति समाघोषेण सञ्चालितस्य तराई मधेस जागरणाभियानस्य अन्तर्गतं मोरङ जनपदस्य कानेपोखरी ग्रामपालिकायाः रमाइलो बजार स्थाने आयोजितायां सभायां पूर्वेद्यु ताप्लेजुङ पूर्वेद्यु अध्यक्ष प्रचण्ड एवं अकथयत। ताप्लेजुङ जनपदे क्रियान्विता निषेधाज्ञा गतरात्रौ एकादश वादनात् अपाकृता अस्ति। जनपद सुरक्षा समितेः परामर्शनस्य अनुसारेण दिवसत्रयात् पूर्वतः क्रियान्विताम् निषेधाज्ञाम् अपाकर्तुम् निर्णीतम् अस्ति इति ताप्लेजुङ जनपद प्रशासन कार्यालयेन ज्ञापितम् वर्तते।